उपोद्घातः अस्ति मगध जनपदेषु कुसुमपुर नामधेयं नगरं तत्र निखिल गुण गणालंकृतो रक्षिता शेष बांधवो वशीकृतात्म रिपु समूहो विवृद्ध विपुल विभवो राजन्य मुकुट निधृष्ट चरण युगलो महोन्नत प्रभावो नंदो नाम नृपतिर बभूव तस्य सौंदर्याभिभूत कुसुम शरांगनांगना जना दर्शभूता रत्नावलीव रत्नावली नाम रमणी बभूव तस्य राज्ञस्तस्यां नवसुनवो अभूवन् कदाचिन्नन्द विभवाकांक्षिणां राज्ञां मन्त्रिणस्तान् व्यजिज्ञपन् राजानः विपुल विभवो विचक्षणामात्यो नन्दो मात्य सम्मतिं विना पराजयितुं न शक्यः अतो अस्य मन्त्रिबलविचारमन्तरा कदाचिदपि न तत् कार्यमारम्भणीयम् इति मन्त्रिवचनमाकर्ण्य ते नृपतयो मन्त्रिणो अब्रुवन् प्रशस्तमतिशालिभिर्भव भवद्भिरैकमत्येन परम सुभगं रत्नपरिमितं समं स्निग्धमेकं देवदारुखण्डमेकान्ते कार्तिभास्वरकार्तस्वर पट्टिकातले निधाय मुद्राङ्कितं च विधाय किमस्य मूलं का वास्य शिखेति सम्यगालोच्य भवद्भिरस्माकं लेखनीयमिति लेख्यमनेकमणिमुक्ता तुरगवसनोपेतं महाराजाय नन्दाय प्रेषणीयमिति ते च मन्त्रिणो नृपतिवचनमाकर्ण्य तथैव व्यधुः एकदा प्रहिष्टमना महाराजो नन्दः चामरग्राहिण्या सुमङ्गलाख्याया कयाचिङ्कित्कर्या सह विविधकुसुमसुरभिकृतान्तरालभागम् उत्कृष्टकुसुमसौरभ आहु तत् षट्पुञ्जपुञ्जितं सौरभसंभारमन्दशिशिरमरुदान्दोलिततरुगणं विविधविहारैकनिकेतनं प्रमदवनमिव प्रमदवनं प्राविशत् तत्र प्रविश्य कश्चिदश्वत्थतरोरथस्थले समुपाविशत् तत्र च मुखेनाश्वत्थबीजकणिकामादाय द्रुतं गच्छन्तीं पिपीलिकापङ्क्तिमालोक्य सविस्मयः स्मितं व्यधात् स्मयमानं महाराजं वीक्ष्य सुमङ्गलापि स्मयमाना बभूव ततो महाराज स्मयमानं सुमङ्गलामालोक्य त्वं कथं स्मयमाना जातेति तां पृच्छत् एवं विहिता सा महाराजस्य भवतः स्मितदर्शनान्माप्य कारण स्मितं जातम् इतः परं नास्ति कारणं मम स्मितस्येति महाराजम् अवोचत् ततश्च महाराजो नन्दः मम स्मितकारणाज्ञानमन्तरा न तव स्मितमिति ज्ञायते तन्मम स्मितकारणम् अवश्यं वक्तव्यं नो चेद्वधिष्यामि त्वामित्यभ्यधात् उक्तञ्च वृथास्मितं वृथालापं न कुर्यान्मतिमान् नरः कुर्वन् वै लघुतामेति शक्रतुल्योऽपि भूतले इत्थं वनिपतिना तर्जिता कालपाशबद्धमिवात्मानं मन्यमाना गत्यन्तरं पश्यन्ति सा साक्षादीश्वरप्रहितमिवात्मरक्षिणं प्रतिभाशालिनं ब्राह्मणेकं पश्यत् परमया भक्तया च तं प्राणमत् स चाग्रजन्मा तामतिभयाकुलां मृतामिवोपलक्ष्यमाणामालोक्य दशाविपर्ययहेतुमपृच्छत् दयावशं वदात्मनाग्रजजन्मना तेन पृष्टा सा सर्वं महाराजोदीरितं वचनं न्यवेदयत् स चाग्रजन्मा नृपदण्डभयाकुलमानसाम् अश्रुपूर्णनयनयुगलाम् अतिदीनवदनां तां समाश्वास्य सर्वमेतदुत्तरमभिधास्ये मा भैषीरित्यभाषत् वत्से तत्र किं किमभूदिति सर्वं तत्रत्योदन्तमभिधेहि ब्राह्मणोदीरितं सुधोपमं वचो निशम्य प्रत्यागतजीवनेव सा समावोचत् ब्रह्मन् अश्वत्थतरोरधस्थले श्वत्थबीजमाददति पिपीलिकापङ्क्तिरासीत् तदवलोकनाविर्भूतकौतूहलशपितकियत्कालो महाराजस्तत्र स्थितः आसीदित्येता वन्मात्रमेव वृत्तमिति ततस्तदुक्तिमाकर्ण्य विदितनृपतिस्मतहेतुरग्रजन्मा तामब्रवीत् वत्से शृणु अल्पः पिपीलिका अत्यल्पमश्वत्थबीजमपहरन्ति परमेतदेवाश्वत्थबीजं कालान्तरे महत्तरूपेण परिणतं सद्गजादिभिरप्यन्पहरणीयं भविष्यति अहो विधातुः सृष्टि वैचित्र्यमिति स्मितो महाराजः अग्रजन्मना तेनैवम् अभिहिता सा नृपान्तिकं समेत्य बद्धाञ्जलि रवोचत्। महाराज, मुखे नाश्वत् बीजमादाय गच्छतीं पिपीलिका पंक्तिम आलोक्य कदाचिदेत देवाश्वत् बीजं महत्तरूपं भविष्यति। विचित्रा सृष्टिरिति स्मितो महाराजः। ततः सुमंगलाभिहितं समुचितमुत्तरं निशम्याति प्रीतो महाराजो महार्हरत्नहारमेकं तस्थै ददौ। अथैकदा समधिगत चातुर्यधीरधिषणा वधीरित सुराचार्यैरमात्यवर्यै समन्ताद्विष्टितं विविधरत्नखचितसिंहासनमलङ्कुर्वाणं महाराजम् उपेत्य प्रणम्य च वेत्रपाणिदौर्वारिकौ बद्धाञ्जलिरभाषत। महाराज, निखिल नृपैकमत्या गृहीत सुवर्णपेटिको अनेकतुरग वसन समुपेतो दूतः समागतः तत्प्रत्यक्षीकरोतु महाराज इति। इत्याकर्ण्य महाराज अब्रवीत् ततः पेटिकाम् आनीय दर्शयेति। इत्याज्ञप्तो दौर्वारिका तुरंगवसनोपेतां सुवर्णपेटिकाम् आनीय प्रदर्श्यं च पुनराप्त तदनुशासन सपेटिकां समुद्घाट्य तन्निहित दारुखण्डं लिखितं च सर्वम् अभिधाय परावृत्तः। ततो महाराजेन वक्रनासादिभिर्मन्त्रिभिः स किमस्य मूलं का वास्य शिखेति विचारयतापि नावधारी। ततश्च तज्ज्ञानजनितोत्कण्ठो महाराजो धृद्दारुखण्ड एवान्तःपुरं प्राविशत्। तत्र च प्रविश्य सुमङ्गलै वास्य तत्त्वम् अवधारयितुं शक्नोतीति निश्चित्य तां प्रत्यब्रवीत्। सुमङ्गले, ब्रूहि तावत् किमस्य दारुखण्डस्य मूलं का वास्य शिखेति। सा तु महाराज वचो निशम्य तं शिरसा प्रणम्य बद्धाञ्जलिरुवाच, प्रमदानाम् ईदृशं मतिवैषद्यं कुतः सम्भवति? यन्मया प्रागुक्तं स्मितकारणं तन्न स्वबुद्धिप्रभावेण किन्तु मां मरणोद्यतां वीक्ष्य सञ्जातकरुणः कश्चिन् महात्मा समभ्यघात् मया च महाराजाय निवेदितमिति। अथ तस्मिन्नेव क्षणे विचक्षणा मात्योऽपि तदर्थचिन्तनाकुलमानसो महाराजः तं सुमङ्गलोदीरितमनिर्दिष्टमानां महात्ममन्विष्य मन्त्रागारे समानीय यथोचितं समभ्यर्च्य समवोचत्। ब्रह्मन्, किमभिधानं भवतः कस्य देशो वास्तव्य इति? ब्राह्मणो अब्रवीत्, महाराज, भवन्नगरवास्तव्यस्य मणिकारश्रेष्ठिनश्चन्दनदासस्यान्तिकेऽस्ति साम्प्रतिको वासः, अभिधानं च मम सुबुद्धिर्शर्मेति। इत्याकर्ण्य महाराजो अब्रवीत्, एतस्य दारुखण्डस्य कियान् भागो मूलं कियान् भागः शिखेति सम्यगालोच्य कथ्यताम्। ब्राह्मणः प्रोवाच, महाराज, नात्र किञ्चिदपि विचारणीयं, शृणु। जले प्रक्षिप्ते अस्मिन् दारुखण्डे यावानंशोऽस्य जले निमग्नः तावानेवांशोऽस्य मूलं यतो दारुणो मूल एव गुरुत्वप्रसिद्धिः, गुरुत्वं च निमज्जने हेतुः। इत्याकर्ण्य तस्य महात्मनो अग्रजन्मनो बुद्धिवैषद्यं विज्ञाय परमप्रीतो महाराजः तस्मै प्राधानामात्यपदं वितीर्य तत्कार्ये नियोजितवान्। अथ कदाचिदसौ सुबुद्धिशर्मा प्रधानामात्यो रणे निर्भीकः सन् युद्धं कृतवान्, तेन राक्षस इत्यपरसंज्ञां लेभे। अनन्तरं कश्चित् पर्वतेश्वर सैन्याधिपति शकटारो नाम सुबुद्धिशर्मणः प्रधानामात्यपदं सहमानः पर्वतेश्वर सैन्याधिपत्यं परित्यज्य महाराजं नन्दं छायावाश्रितुमुपक्रान्तः। अथ कियति काले अतीते त्यक्त सकल बांधव स्नेह विरहित वसुंधरः संपादित निजांगना वैधव्या हृत सिंहासनाखिलशोभो महाराजो नन्दोदयवात् पुरंदर पुरांगणातिथिर्बभूव। तस्मिन्नेव काले विंध्याटवी प्रांतवास्तव्य कश्चित् सुविद्यो नाम जटिलो नेपालदेशे नीलकंठोपाध्याय दधिकतान्यकायात्म प्रवेश विद्य सतीर्थाभ्याम सुशील बहुश्रुताभ्याम सह कल्पित लक्ष्य सुवर्णमित गुरुदक्षिणार्थम महाराज पदभूषितस्य नन्दस्यैव तद्यान सामर्थ्यमत्वेत्य कुसुमपुरमुपागतम्। आगत्य सुरसरित्कूले कृतासन परिग्रह एवासौ महाराजस्य प्राणवियोगो दन्तमशोषीत्। अनन्तरमसौ व्यचिन्तयत् अहो महत् कष्टमुपस्थितम्, महाराजो मृतः, गुरुदक्षिणायाश्च बाहुल्यं कृतस्थां सम्पादयिष्यामि, अनेक नृपान्तिके याचनमयुक्तं, याचितेष्वपि तेषु कदाचिदिष्टसिद्धः स्यान्न वा, याचनं तु जीवनमरणेव उक्तं च धनाढ्य सविधे दीनं देहि देहीति यो वदेत् शपयन्नात्मनः कालं जीवन्नेव न जीवति। वरं वृक्षत्वभिर्वसनरचनं शैलशयनं वरं जीर्णारण्ये गलितफलमूलाशनरुचिः वरं मृत्युर्लोके न तु धनमदान्धस्य सविधे स्खलद्वर्णं लज्जानतमिह मुखं याचन विधौ अतो याचनं सर्वथा युक्तं प्रतिभाति। तत्साम्प्रतम् आत्मविद्यामहात्म्येन नृपकायं प्रविश्य सुशीलनामानं सतीर्थं याचकं विधाय तद्द्वारा निजकार्यं साधयिष्यामीति। इत्थम् अवधार्य सुविद्यो निजसतीर्थौ प्रत्यब्रवीत्। मित्रसुशील अद्य सायंकाले राजकायमनुप्रविष्टे मयि त्वया मदन्तिकं समेत्य लक्षसुवर्णात्मिका गुरुदक्षिणा याचितव्या। मित्र बहुश्रुत त्वयास्मच्छरीरं यत्नतो रक्षणीयमति। अथाति दुर्लभ विद्या महिम्ना प्राणान् समाकृष्य राजशरीरं प्राविशत्। महाराजश्च सद्य सुप्तोत्थित इव व्यबुध्यत्। ततश्च प्राधानामात्यपदम् अलङ्कुर्वाणो राक्षसो निखिलपुरजनानाहूय महाराजस्य पुनर्जीवनप्रयुक्तमहोत्सवाय विविधमणिखचितचतुस्तम्भशालिना सिंहासनस्योपरि महाराजं समुपवेश्य विविधमङ्गलं व्यग्धात्। तस्मिन् क्षणे कृतसङ्केतं सुशीलनामानं निजसतीर्थमागतं वीक्ष्य तं समादृत्य तेन गुरुदक्षिणार्थमभ्यर्थितो महाराज तस्मै लक्षसुवर्णानि व्यतरत्। इत्यालोच्य मन्त्रिराक्षसो व्यचिन्तयत् गज्जीवितस्य महाराजस्य पुनर्जीवनं जीवितमात्रेण बहुसुवर्णदानं किमप्यद्भूतमिव प्रतिभाति। सम्भावयामि खलु कश्चिदन्यकायानुप्रवेशविद्याविचक्षणो महात्मा निजमिहितसाधनार्थमिदमन्वतिष्ठत्। अनेन पुनरात्मकाये गृहीते नृपविहीना वयं भविष्यामः। अतो अस्य कुत्रापि स्थितमेतद्विग्रहं विनाशनीयं यथा नायं पुनरात्मविग्रहं प्रतिपद्येत् इति विचिन्त्य शीघ्रगामिनं तुरङ्गमारुह्य समन्तात् मृगयितुं सुरसरित्कूलेन गच्छन् कदा महात्मा सुविद्यो निजशरीरमाविशेदिति चिन्ता समाकुलमानसं सुशीलमपश्यत्। दृष्ट्वा च तं स एवायं जनो यो महाराजतो लक्षसुवर्णानि गृहीतवानित्यवधारितवान्। लक्षमितद्रव्यप्राप्ताव्याकुल इवायं दृश्यते। अतो अत्रैव किमप्यालोकनीयम् इत्यालोच्य तुरङ्गादवातरत् अवतीर्य तत्रैकजटिलशरीरं पश्यत्। ततश्च कस्येदं शरीरमिति तच्च शरीररक्षकं पुरुषद्वयम् अपृच्छत्। एवं पृच्छयमानाभ्यां ताभ्यां यदा न सम्यगुत्तरितं तदाह कुटिलाशयाविमौ कदाचित् कोप्योपायं विधास्यत इत्यवगत्य च शिलानिबद्धौ तौजले निचिक्षेप। अथ महाराजशरीरमनुप्रविष्टः सुविद्यनां जटिलो निजसिद्धविद्यामहिम्ना मच्छरीरं राक्षसेन दग्धमित्यवगत्य शरीरवात्सल्येन मनसि नितरां सुक्षोभ। ततश्च कियत्कालानन्तरं मन्त्रिराक्षसो व्यचिन्तयत् मयि प्रवृत्ते किमपि प्रवक्तुं चित्तं समासज्जति कौतुकेषु मयि स्थिते संसदि वक्रनासं सम्बोध्य सम्भाषणमातनोति इति विरक्तो महाराजो निजशरीरविनाशाविर्भूत विपुलरोष इव प्रतिभाति। अतो नात्रावस्थानं युक्तं यतः अन्तकः कुपितो यस्मिन् तदन्तं कुरुते हि सः राजा तु कुपितः सर्व कुलस्यान्तं करोत्यलम् इत्यालोच्य सायं पूर्वपान्तस्थितसुरसदनमहोत्सवावलोकन् व्याजेन सपरिवारो राक्षसः कुसुमपुरं जहौ। ततश्च पर्वतेश्वर एव साम्प्रतं गुणज्ञः श्रूयते स एवाश्रयितव्य इति निश्चित्य तमुपाससाद। अथ नीतिविचक्षणधुरीणः शकटार एव प्रधानामात्यपदमञ्चलङ्कार कदाचित् महाराजस्य मृगाभिलाषामालोक्य षट्कारोऽपि महाराजम् अनुगच्छन् विविधपशुमृगया विहारेणातिशयं प्रसादयामास। मृगानुसरणे नातिनिविडविपिनमध्यमाविष्टं तुरङ्गमारूढं महाराजमेकः शकटारम् एव तुरङ्गमारूढोऽनुवव्राज नान्येऽनुयायिनस्तमनुसर्तुमशक्नुवन्। ततश्च प्रधानामात्य शकटारो महाराजं श्रान्तं श्रुतिपासाकुलञ्च वीक्ष्य तुरङ्गादवतीर्य विपिन्नैकदेशैः निजोत्तरीयवसनास्तरणे समुपवेश्य जलमाहर्तुं जगाम। इतस्ततो भ्रमन्नसौ शकटारो विविध जल कुसुम शोभिनम प्रशस्त जलम जलाशयमेकं प्राप। ततस्तस्मिन् जलाशये सम्यगवगाह्यत कमल दल विनिर्मित पुटेन जलम पिबन् यावत् समन्तात् द्वीक्षते स्म तावदेकं लिखित वर्णां कामपि शिलां जलेऽवलोकयत्। इदमेव तत्र लिखितमासीत्। अत्युच्छ्रिते मन्त्रिणि पार्थिवे च विष्टभ्य पादा उपतिष्ठते श्री शास्त्री स्वभावा दशहा भरस्य तयोर्द्वयोरेकतरं जहाति। तुल्यार्थं तुल्यसामर्थ्यं मर्मज्ञं व्यवसायिनं अर्धराज्यहरं वृत्तं यो न हन्यात् सहन्यते। ततश्च तां शिलामवलोकमानसौ शकटारो मनसि व्यचिन्तयत्। शिलायामेतस्यां किमर्थमिदं केन लिखितमिति अथ वैतादृशोम् अहमेवास्मित्यो मदर्थमेव ब्रह्मणा लिखितमिति। अभाग्यवशान् महाराज दृष्टिगोचरीभूतैषा शिलानून् मस्मत्प्राणहारिणी भविष्यतीति निश्चित्य तां शिलामन्यथा विधाय तत्रैव संस्थाप्य कमलदलपुटेन जलमादाय महाराजम् उपाजगाम। महाराजस्तु शकटा रानीत जलं पीत्वा अपि तृप्तिमलभमानं तदैव जलाशयमागत्य तस्य च शिशिरसोपान प्रान्त लग्नशिलातले पादौ निधाय समन्ताद् अतिनिर्मल जलं पश्यन् एकत्र कलुषितं जलं वीक्ष्य कथमत्र कलुषितं जलमिति विचारयन् तदन्तर्जले करं प्रसार्य सकधर्मा शिलामेकाम् अस्पृशत् तां शिलामुत्थाप्य जलेन प्रक्षाल्य तत्र लिखितं तदैव पद्यद्वयं प्रपाठ। अनन्तरं शकटारो जलं पातुं गतस्य महाराजस्यातिकाल विलम्बम् अवगत्य शिलाधिगमं सम्भाव्य तदन्वेषण व्याजेन तत्रागत्य शिलालिखित पद्यदत्त दृष्टिं महाराजं वीक्ष्य ममैवायमनर्थ आपतित इति व्यचिन्तयत्। स्वयं गते जगज्जालं गतमेव न संशयः, स्वयं जीवति तत्सर्वं जीवति तेव निश्चयः। धर्मार्थकाममोक्षाणां कारणं स्वस्य जीवनं, तस्य सत्त्वे तु धर्मोऽपि परिहर्तुं लघुर्भवेत्। अश्वमेधसहस्राणि वाजपेयशतानि च आत्मत्राणतुलां यान्ति नैव विज्ञानकोटयः। इत्थम् आलोच्य तामेव लिखितवर्णा महाशिलावनपतिशिरसि प्रहृत्य तं गतजीवनं विधाय तस्य तुरङ्गं क्वचिन् निबिडकानने विहाय ततोऽतिदूरमागत्य नृपान्वेषणमेव कुर्वन् बभ्राम। ततश्च विविधशास्त्रशस्त्रविद्याविचक्षणेषु महाराजम् अनुगतेषु सैन्येषु सम्प्राप्तेषु महाराजौ दन्तं तान् पृच्छत्। एवं पृच्छ्यमानास्ते समुब्रुवन् अमात्यशकटार परं कारुणिको दानदया दाक्षिण्यादिगुणगौरवग्रस्तो महाराजो न दृष्टैति तैरेव मुक्तोऽसौ शकटार तैरेव स समन्तादरण्यानि विचरन् दुःखः संविघ्न इव पुरमाजगाम। अत पुरमागतो मातृशकटार तत्र महाराजम् अपश्यन् तदन्वेषणार्थम् अनुचरान् दिक्षु प्रस्थाप्य स्वयमप्यनेकसैन्यसमेतो महाराजम् अन्वेष्टुमितस्ततो वनानि परिभ्रमन् तमेवाश्वं प्राप न तु महाराजम्। तथा सर्वे समेत्य चिन्ताकुलितमानसा पुरमेव शोकाकुलं व्यधु। अमात्यशकटारस्तु हा शितिपते क्वास्मान् परित्यज गतोऽसि उत्तरं देहि इति चिन्ताग्रस्त इवोच्चक्रन्द। सर्वैरनुयायिभिः प्रतिबोधितोऽपि स प्राणं त्यक्तुं प्रतिजज्ञे। अथ शोकाकुले सावरोधे कुसुमपुरजने वक्रनाशप्रभृतिमन्त्रिणो मिलित्वा तं प्रधानामात्यं शकटारं सम्प्रबोध्य तौ नवनन्दसुतान् सान्त्वयित्वा महाराजस्यौर्ध्वदैहिककृत्यम् अपूरयन्। ततश्च कल्याणवासरे प्राप्ते महाराजस्य ज्येष्ठसुतं सिंहासने समुपवेश्य समभिषेच। अन्ये च ते नृपतिपुत्रा अग्रजं सिंहासनारूढं समीक्ष्य पितरमेव समुपतस्थु। कदाचिदसौ भूपति समवयस्कैरनेकैः सुहृद्भिः सह विहरन् उद्याने क्वचित् तरुतले समुपविष्टः पितृमरणशोकातुरः शकटारे सन्निहिते वक्रनासादीन पृच्छत् मन्त्रिणः मम पितुर्यथावद् वृत्तमभिधत्त यूयमिति। इति नृपतिवचनमाकर्ण्य वक्रनासादयो मन्त्रिणस्तमब्रुवन् महि जाने कदाचित् देवस्य पिता महाराजो नन्दो मृग्यार्थ प्रधानामातेन शकटारेण सह वनं जगाम। तत्र तौ समन्तान् मृगयार्थं भ्रमन्तौ त्यक्तसकलानुयायिनावतिदूरदेशवर्तिनौ बभूवतुः। ततः कियत् कालानन्तरं मन्त्रिणां शकटारेण नगरं समेत तत्र महाराजस्य प्राप्तिर्वार्तामुद्घोष्य पुनस्तन्मन्वेष्टं वनं गतेन तुरङ्ग एवानीतो न तु महाराज इत्येतावन्मात्रवृत्तान्तवेदिनो वयमिति श्रुतामात्यवचनो नृपति विविधविचाराकुलमानसः क्षणं तूष्णीं भूय विश्वस्तान् बुद्धिशालिनो दूतानाहूय भवन्तो यथावत्पत्रलाभवृत्तान्तमन्विष्यन्तु कृतकार्येभ्यो भवद्भ्यो विपुलधनं प्रदास्यामित्यादिश्य स्वयमन्तः पुरं प्राविशत्। इत्थं वनिपतिसमुदीरितं वचो निशम्य ते अब्रुवन्, राजन् नास्माकं किञ्चिदपि तद्वृत्तम् अवगतमस्ति। ततश्च क्रुद्धो नृपस्तान् प्रत्यब्रवीत्, येन केनाप्युपायेन युष्माभिर्वृत्तमानेयं नो चेत् प्राणदण्डेन योजिता भविष्यथेति। अनन्तरं भयाकुलमानसास्ते सर्वत्रानेकोपायेन महाराजवृत्तान्वेषणं कुर्वन्तोऽपि दैववशाद् लब्धमहाराजवृत्ता अभवन्। ततश्च तेषु कश्चित् वृद्धवयस्कः कदाचिन्न गरोपान्तवर्तिनः शरत्तीरे समुपविष्टं तापसवेषधारिणं कमपि पुरुषम् अपश्यत्। स च तापसः भयाकुलमानसं तं वीक्ष्य सकलवृत्तम् अपृच्छत्। तापसवचनमाकर्ण्यवृद्धो अब्रवीत्, भगवन् कदाचित् प्रधानामातेन शकटारेण सह मृगयार्थं वनं गतस्य महाराजस्य तदा प्रभृतदर्शनादतिचिन्तितो नृपस्तद्वृत्तान्तोपलब्धेऽस्य मानः समादिशत्। कृतकार्या वयं समागताश्चेत् पारितोषिकेन, कृतकार्यश्चेत् प्राणदण्डेन योजिता भविष्याम इति। तदुक्तिमाकर्ण्य स तापसो अतिभयाकुलं तं वृद्धम् अब्रवीत्, तात चिन्ता जहि हि, अहमेव तव कार्यसाधको अस्मि। द्रुतं राजसन्निधि समेत निवेदय नगरोपान्तवर्ती सरस्वतीर्वास्तव्यः, कश्चित् तापसो महाराज गूढवृत्तभिज्ञोऽस्तीति इति। तापसोक्तिमाकर्ण्य प्रसन्नहृदयोऽसौ स्थविरो द्रुतं राजानम् अब्रवीत्, राजन् महाराज निगूढवृत्तान्तन्वेषणं कुर्वतां मयाद्य सायं कश्चित् तापसो दृष्टः, स तु मां प्राप्त महाराजो दन्तं कलुषितमानसं वीक्ष्य कृपया मामाहूय मदुदीरित मखिलवृत्तमाकर्ण्य राजान्तिकं गतेन मया सर्वं निगूढवृत्तम् अभिधातुं शक्यते इति सम्यभदात्। तदा कर्ण्य सत्वरं देवपादमूले निवेदितुमागतोऽस्मि, यतः परं देव प्रणाम इति। ततश्च राज्ञा समादिष्टोऽसौ शीघ्रमेव तं तापसं राजान्तिकम् आनीतवान्। राजा समागतं तापसं प्रणम्य प्रशस्तासने समुपवेश प्रत्यब्रवीत्, भगवन् यथावत् तातवृत्तम् अभिधेहि इति। नृपतिवचो निशम्य सिद्धमेव निजकार्यं जानीहि, परदिने निखिलवृत्तम् अभिधास्यामिति। तापसो अभिधाय निजाश्रमं गतो नृपतिश्चान्तः पुरम्। अनन्तरं शीघ्रमेवायमर्थो निश्चेतव्य इति चिन्तयन्नसौ तापसो वीरसाधनमचिन्तयत्। प्रातरुत्थाय निगूढवृत्तज्ञानोपयोगि द्रव्यसम्पादने तं वृद्धं नियोज्य श्मशाने शूलारोपितं पुरुषमेकमादाय सायं गङ्गोदकेन संस्नाप्य चित्तामेकामासिच्य तत्र कृतपूजनं, कृतसिन्दूरतिलकं, कृतरक्तचन्दनं, रक्तकरबीरदामनिबद्ध सर्वाङ्गसताम्बुमूल मुखमुत्थाने निधाय चरणकरशिखाशु तत्तमन्त्रै पञ्चभिः कीलके कीलयित्वा मत्स्यमांसादिविविधबलिपूजासाधनानि सम्पाद्य विस्तृसितचिकुरभारो वामकरकलितनरकपालमाल कृतसिन्दूरतिलक कृतरक्तचन्दनानुलेपनो रक्तकुसुमस्त्रकभूषितखण्टः करधृतासी सताम्बुमूलमुखः कृतनयनाञ्जनः त्यक्तपरिधानवस्त्र तच्छव हृदयबद्धवीरासनो दिग्बन्धात्मरक्षादिकं विधाय त्यक्तभय दिक्षु विदिक्षु च विकीर्णं क्षेत्रपालादिबलि तिरस्करिणी प्रणम्य महाकालीं ध्यात्वा रात्रौ मन्त्रजपम् अकरोत्। ततश्च नानासिद्धिविनाशिघोराने करूपभूतप्रेतपिशाचादीन् तत्त्वलिभिस्तद्दा प्रभावैश्च निराकुर्वन् मन्त्राक्षराणि पठन् सहसा निशीथान्तिमयामे प्रदीप्ते तेजोराशिं ददर्श। ततश्च देवी चरणकमलं ध्यायन् प्रशस्तधीर्देवीं भद्रकालीम अपश्यत्। ताम वीक्ष्य दंडवत् प्रणम्य तेन सुता सावत्स प्रसन्नास्मि वरम ऋणीष्वेति। मातः महाराजस्य वित्तं ब्रूहीति तापसेनाभिहता सा तद्वत्मभिधातु मारेभे। भद्र नगर निकटवर्तिनः पाताल कन्दर नाम पर्वतस्य कन्दरातटे स्थितस्य वटवृक्षस्यान्तिके वापी जले निहितशिला लिखित श्लोकद्वय तात्पर्य दत्त मानसं नृपं मन्त्री शकटारो महाशिलां प्रहृत्य पुरन्दर पुराङ्गणातिथिं व्यधात्। संप्रत्यपि तत्रैव तस्यास्थीनि सर्वाणि अलंकरणानि च सन्तीति प्रतिपाद्य साक्षात् अन्तर्दधे। अनन्तरमसौ तापसः स्थविरेण तेन सह नृपान्तिकं जगाद। राजन् देव्यनुकम्पया निखिलवित्तम् अवगतं मया परं न शक्येऽभिधातुं यतः स्वायत्तसिद्ध्यन्यात् सिद्ध्युभयायत् सिद्धीनां राज्ञां मध्ये भवन्यायत् सिद्धिरेवास्ति इदं च वित्तम् मन्यमेवानुसरतीति। ततश्च महात्मन् स्वाधीनसिद्धिमेव मामवे हीति नृपतिवचनमाकर्ण्य सर्वं देव्युदीरितं तपसोऽभ्यदात्। तापसोक्तिमाकर्ण्य प्रसन्नहृदयो नृपतिस्तस्मै तपस्विने बहून्यलङ्करणानि रत्नानि च समर्प्यं शिलालङ्करणादिकमानेतुं तेन स्थविरेण सह तं प्राहिणोत्। स च तापसः परदिने स्थविरेण सह दिव्यक्तु मार्गेण तत्र गत्वा शिलालङ्करणादिकमानीय नृपान्तिके निधाय निजाश्रमस्थो बभूव। ततश्च नृपति तान्नेव सर्वाणि महाराजशरीरालङ्करणानीति कञ्चुकिवचो निशम्य शिलालिखितश्लोकाभिप्रायं विचिन्त्य पितरञ्चोभयायत् सिद्धमवेत्य शकटारेणैव दुःस्वभावेन सर्वमिदम् अनुत्तिष्ठत्मिति निश्चित्य वस्त्रेण शिलामावृत्य वक्रनासादिमन्त्रेण समाहूय सर्वमुदन्तमभिधाय शकटारमाहन्तुमादिदेश। तदन्तरमसौ नृपशकटारमाहूय तस्मै तद्वृत्तम् अभिधाय कालकायाख्यमनुचरमाहूय प्रत्यब्रवीत्। कालकाय परं निविडमेकं भूगृहं निर्माय तत्र सपरिवारं दुर्मासनमेकं संस्थाप्य स्वल्पेन तद्वारेण पञ्चफलमितं पुराणचणकान्नं तन्मितं जलं च तस्मै प्रतिदिनं देयम्। कस्यापि तत्र गमनं यथा न भवेत् तथा विधेयं चेति। कालकायश्च नृपतिवचनमाकर्ण्य तथैव सर्वकार्यं व्यधात्। अथ वक्रनास प्रभृति मन्त्रिण एव नृपते राज्यकार्याणि कुर्वन्ति स्म। शकटारस्य बन्धनागार निक्षिप्तातिशये अतिशयितखेदमापन्न सङ्कटवर्मा विकटवर्मा सुमतिमित्रगुप्तप्रकटार विकटारनामधेयान् षट् पुत्रान् प्रत्यब्रवीत्। पुत्रा महत् कष्टमुपस्थितं कश्चिदुपायो विचिन्त्यामि येनास्य प्रतिविधानं स्यादिति। ततस्ते विकटारवर्जनम् अब्रुवन्तात् नास्माकं कोऽप्युपायलेश स्फुरति अथ च प्रतिविधानचिन्तनमप्यनुचितम्। अकारण नृपवधात् नृपवधपातकस्य दृशकष्टप्राप्तिरुचिवैति। इत्याकर्ण सक्रोधो विकटारो अब्रवीत् भ्रातरः आत्मरक्षार्थं कार्यमपि कृतं चेन्न दोषावहं भवति। किञ्च पितुरपराधीन् निरागसामप्यस्माकमेतादृशदुःखभोग केवलं राज्ञः कृतघ्नत्वं सूचयति। अस्तु प्रतिविधानमत्र चिन्तनीयं। ततः शकटार विकटारमेव प्रतिविधानशमं वगत्य चणकान्नजलादिकं तदर्थमेव प्रकल्प्य स्वयं परिवार सक्रमेण परलोकवासी बभूव। विकटारस्तु निपाहिते वचुर्विशोक कथञ्चित् कालं व्यतीयाय। कदाचिन्न नृपकालकाय मानं भृत्यमाहूय शकटारस्य साम्प्रतिकां स्थितिम् अपृच्छत्। स च नृपं प्रत्यब्रवीत् राजन् शेषा भवदादेशमादाय तावन्मात्र चणकानत् जलदानकार्यमात्रं करोमि नातः परं किमपि वेद्मि इति। ततो नृपति समादिष्टो भृत्यो अवनिभवनद्वारं समुद्घाट्य स्थितचर्मावशेषं विकटारं मृतकास्थीनि च विलोक्य नृपान्तिकं समेत्य व्यजिज्ञपत् राजन् सर्वम् एव गतप्राणा परमेको वास्ति चर्मावशेषो निःश्वासोपलब्धप्राणो जीवतीति। तदा कर्णसञ्जातानुकम्पो नृपतं बालकं बन्धनागारादानाय जीवन्मात्रमन्नं तदर्थमाज्ञापयत्। स च बालः तेनैवान्नेन स्वगृहे स्थितकालमत्यवाहयत्। अत्रान्तरे मन्त्री राक्षसो व्यचिन्तयत् किं देशान्तरलब्ध वैभवचये सर्वाधिकै सर्वदा यत्रात्यन्तिकबाल्यमित्रसुहृदां दृष्टिर्न सञ्जायते किम्बानेन महत्तरेण महसा तत्राधिकारेण वा यत्र द्वेषी जनस्य कापि निकृतिः कर्तुं न वा शक्यते। निज शरीर दाह जनित वैरो नृपभोग्य संपद दर्जनात्मकोपराकारा नभिज्ञो नृपस्तदनुयायी शकटारश्चोभौ पञ्चत्वमुपागतौ तदात्मजश्चोदग्रन्ध्वा नन्दो निखिलमहिमात्म सात्कर्तुं महिमानः सकलकार्यदक्षम् आमत्यं मृगयते। अत इतो निसृत्य सुहृद्वरचन्दनदास शकटादासाद्यधिष्ठितं कुसुमपुरमेवाश्रयणीय मिथ्यालोच्य पर्वतेश्वरं विहाय कुसुमपुरम् उपागतम्। ततश्चोदग्रन्धन्वा नन्देन राक्षससमागतमवगत्य पैतृको अयम् आमात्य इति प्रधानामात्यपदं तस्मै प्रादायि। स चामात्य राक्षसो यथोचितं राजकार्ये सम्पादयामास। शकटारात्मजो विकटारस्तु अमात्य राक्षस्यैव वाशयोपचारासक्तो बभूव। तदुपचार प्रीतो मात्य राक्षसः तस्मै किञ्चित् पारितोषिकं दातुमीश। ततो विकटारो नाहं पारितोषिकमिच्छामि किन्त्वेकम् अधिकारम् इच्छामीति न्यवेदयत्। अमात्य राक्षसश्च तन्निवेदनं निशम्येक अधिकारं तस्मै दातुं प्रतिजज्ञे। कदाचित् मात्य राक्षसो नृपपितु श्राद्धदिने समुपस्थिते श्राद्धभोजी ब्राह्मणं निमन्त्रयितुं विकटारं नियोजितवान्। स च विकटारः तथेति मन्त्रिणो राक्षस्यादेशमुत्तमाङ्गेनादाय समयोऽस्मत्प्रतिहिसाय इत्यवगत्य तुरङ्गमधिरुह्य सर्वस्तथाविधं ब्राह्मणं मृगयन् ददृविहतकान्तिमतिवृद्धवयस्कं भीषणकुटिल विरलदशनं भ्रूकेशावृतपि पिङ्गलाक्षियुगलं विवृद्धश्मश्रुभीषणायस्यं पिङ्गलोर्ध्वशिरोरुहं निन्दितवेशरूपं दर्भोत्पाटनाय तन्मूलभागेषु माक्षिकप्रक्षेपाकुलहस्तं कमपि तापसम् अपश्यत्। तम् अवलोक्य एष ब्राह्मणो अतिशययोगोद्दीव लक्ष्यते इत्यवगत्य तुरङ्गादवरुह्य तमभिवन्द्य बद्धाञ्जलिरब्रवीत्। श्रीमन् को भवान् जन्मना कञ्च देशमलङ्कारञ्च किञ्च नामधेयं भवतः कथञ्चास्मिन् निर्जनप्रदेशे प्रचण्डमार्तण्डातिसन्तापवति मध्याह्नकाले किमिदं विधीयते। गोप्यं नो चेत् तर्हि श्रोतुमिच्छामि इत्याकर्ण्य स तापसः अलमनेन कार्यविघ्नभूतेन सम्भाषणेन इत्यभिदधानोऽपि भूयो भूयस्तेनाभ्यर्थमानः दर्भोत्पाटनं विदधदेवाब्रवीत्। ब्राह्मणजातीय विष्णुगुप्तो नाम शिवगुप्ततनयोऽस्मि कदाचित् स्नातुं जाह्नवीतीरं गच्छन् मे पिता दर्भाङ्कुरविद्धपादस्तदुत्पन्नव्यथैव परलोकातितिथिरभूत्। एतदते दर्भा मम शत्रव एवेति दर्भानेतानुत्पाटयितुं तन्मूलेषु माक्षिकं प्रक्षिपामि येन तदाकृष्टपिपीलिका दर्भमूलान्तविनाशङ्करिष्यन्ति। एवं क्रमेण सकलमहीतलं निर्दर्भं विधास्यामिति दृढप्रतिज्ञया कार्यम् एतद् विधीयते इति। विकटारो ब्राह्मणोक्तिं निशम्य नृपस्यै तेन सह कदाचित् यदि विरोधो जायते तदा नृपस्य समूलमूलनं स्यादेव ईदृशं च विरूपं ब्राह्मणं विलोक्य नृपः क्रुद्धो भविष्यत्येव नात्र सन्देहः। क्रुद्धेन भूपतिनास्यापमाने कृते ममेप्सितं सिद्धमेव इति निश्चित्य तमं ब्रवीत्। अग्रजन्मन् कुसुमपुराधिराजस्य परदिने पैतृकं कृत्य भावि तद्भवन्तं तत्र भोक्तुं निमन्त्रयामिति। अनन्तरमसौ महात्मा नृपनिमन्त्रणनिराकरणम् अयुक्तम् अवगत्य किमस्मत्कार्यविघ्नमुत्पादयसीति विरक्त इव अस्तु श्राद्धवेलायामेव तत्र गमिष्यामि न ततः प्राक् न वा गमनोत्तरं क्षणमपि विलम्बं सहिष्ये इत्यभिधाय व्यरमत्। विकटारस्तु तथेति सम्भाष्य तञ्च तापसं भिवन्द्य तुरङ्गमारुह्य कुसुमपुरम् अगात्। अमाते राक्षसाग्रे ब्रह्मण निमन्त्रणवार्तां न्यवेदयत्। अथ निश्चितदिने मध्याह्नकाले श्राद्धवेलायाम् आगतं विष्णुगुप्तनामानं ब्राह्मणं योग्यासने समुपवेश्य विकटारो अन्यत्र गतः। नृपस्तु कृतनृत्यक्रियन्तः पुरादागत्य श्राद्धमण्डपे तादृशं विरूपं ब्राह्मणं श्राद्धभोक्तुरासने समुपविष्टम् आलोक्य क्रुद्धं सन्नब्रवीत्। किं भूतले कश्चित् ब्राह्मणो नास्ति येन विरूपम् ईदृशं ब्राह्मणम् आनीतवान्? विरूपम् एतम् अपसारय नाहमेनं श्राद्धभोक्तारं कर्तुमिच्छामि इत्युच्चैर्ब्रवीत्। नृपवचनं निशम्य विष्णुगुप्तनामा ब्राह्मणः प्रलयकाल इव कोपोद्दीपितः सहसासनादुत्थाय भूमौ पादमाहत्य धिङ् मूर्खः मां नावगच्छसि साम्प्रतम् अनुभूयतां दुर्विनस्य फलं सर्वैरत्र निशम्यताम्। मध्येऽस्मिन् निलये हि सर्वविदुषां मूर्धाभिषिक्तस्य मे यत्रासीदवमानना तदधुना स्तोमं कुशानामिव यावन्नन्दकुलं कलङ्कमलिनं नोन्मूलये मूलतः तावत् श्रीशिवगुप्तलालिततनुर्बध्नामिनाहं शिखाम्। इत्युक्ता यः कश्चिदेतत् राज्याभिलाषी स मया सह समभ्येतु इत्यभिधाने नृपालयादगात्। तस्मिंश्च काले अस्य नृपस्य पितुर्दासीपुत्रश्चन्द्रगुप्तो नाम मनसि व्यचिन्तयत्। नन्दान्वये कस्मिंश्चिदपि जीवति न कदाचिदपि राज्यलाभो भवितुमर्हति। यदि दैवादति तेजस्विनो ब्राह्मणस्य प्रभावेण मम राज्यलाभः स्यात् तदा सर्वं प्रयोजनं सिद्धम्। राज्यलाभो नो चेत् तर्हि स्थानान्तरे अपि कालं यापयिष्यामिति तपस्विना सह गमनमेवोचितमिति सम्यगालोचितं तपस्विनं ब्राह्मणम् अनुजगाम। भद्रभट पुरुषदत्त हिङ्गुराथ बलगुप्त राजसेन विजयवर्माणश्च तदनुयायिस्तन मनुजग्मुः विष्णुगुप्तैस्तरनुगम्यमानो जाह्नवीमुतीर समचिन्तयत्। उचितमनुचितं वा कुर्वता कार्यजातं परिणतिवधार्या यत्नतः पण्डितेन अतिरभसकृतानां कर्मणामासमाप्तेः भवति हृदयदाही शल्यतुल्यो विपाकः। इति श्रुतमिदं कार्यं कथं सिद्धं भविष्यति अथवा अलमेतेन चिन्तनेन यतः हस्ति स्थूलतरः सचाङ्कुशवशः किं हस्ति तुल्योऽङ्कुशः दीपे प्रज्वलिते विनश्यति तमः किं दीपमात्रं तमः वज्रेणाभिहता पतन्ति गिरयः किं वज्रतुल्यो गिरिः बुद्धिर्यस्य गरीयसि स बलवान् स्थूले शुकः प्रत्ययः। कोऽहं कौ देशकालो समविषमगुणा के रयः के स्वपक्षाः कुत्रे मे कार्ययोगा रिपुसमसुहृदां कीदृशः शक्तिसारः सम्पत्तौ कोऽथ बन्धु प्रतिहत वचनस्योत्तरं किं तु मे स्यात् इत्येवं कार्यसिद्धावहितमानसो नावहस्या भवन्ति। किञ्च सहायबलेनैव सुबुद्धिरपि दाशरथिर्दशाननं विजित्य तदनुजाय विभीषणायातिप्रीतो लङ्कराज्यम् अदात्। अतः प्रागेव सहायसम्पादनं विधेयम्। तत्साम्प्रतम् अमात्यराक्षसविहीनं पर्वतेश्वरमेव निजनिर्मितनीतिशास्त्रप्रदर्शनेन स्वाधीनं करोमि। स च पर्वतेश्वरो अर्धराज्यलाभेच्छया अवश्यमेव सहायं विधायसीत्तीति सम्यग्वधार्य पर्वतेश्वरान्तिकमुपागतम्। अस्मिन्नेव काले विष्णुशर्मा निजसुहृदजीवसिद्धिनामानं शपणकवेषधारिणं विधाय ज्योतिर्विद्याबलेन मन्त्रिराक्षसेन सह कृतसौहार्दं निजकार्यसाधनाय कुसुमपुरमेव प्राहिणोत्। सिद्धार्थकनामानं पुरुषं च सकटदासेन सह कृतकृतिमसौहार्दं तत्सन्निधावेव स्थातुं नियोजितवान्। स्वयं च राज्यार्धप्रधानप्रतिश्रुत्य पर्वतेश्वरं वशीकृत्य तदीयसैन्यसमुदायेन सह कुसुमपुरमुपरोधुमुदचलत्। तस्मिंश्च काले भागुरायणो विष्णुगुप्तेन मन्त्रितः पर्वतेश्वरात्मजेन मलयकेतुना सह सौहार्दं व्यधात्। भद्रभट प्रभृतयस्तु मलयकेतु कुमारसेवकेन शिखरसेनेन सह कृतमैत्रिका आसन्। ततश्च चन्द्रगुप्तम् अतिपरिगृहीत शक यवन किरात काम्बोज पार्सीक प्रभृति प्रबल सैन्य समन्वित पर्वतेश्वर सैन्य परिवृत्त चन्द्रगुप्तेन सहसोपरुद्धं कुसुमपुरं समीक्ष्य नृपः सम्प्राप्तो अयं समयो निज पौरुष प्रदर्शनस्येति विचिन्त्य सर्वार्थसिद्धिनामानं पितृव्यात्मजं राक्षसनामानं मात्यं च दुर्गसंरक्षणार्थं नियुज्य भातृगणैः सैन्यैश्च परिवृत्तो रिपुसैन्यमाविवेश। प्रवर्तमाने सङ्ग्रामे सानुजो नृपः क्रमेण क्षितितलशायी बभूव। चन्द्रगुप्तस्तु जयध्वनिं निशम्य प्रसन्नमना कुसुमपुरं नितरां रुरोध। ततश्च सर्वार्थसिद्धि तथा विधोपरोधौ परिजनक्लेशमसहिष्णो निजान्वय विनाशञ्चेक्षमाणो नितरां खिन्नहृदय केनापि पथा तपोवनं जगाम। अमात्य राक्षसश्च चंद्रगुप्त विद्वेषात् स्वामी कुल विनाशांच प्रचुर खेदमापन्नो निज सुहृदि चंदनदासे पुत्र कलत्रादिकं न्यासीकृत गुप्त मार्गेण सुरंगया कथंचित पुरा निर्गत्य सकल राज्य प्रदान प्रतिश्रुत्या पर्वतेश्वरमायत्तम कृत्वा चंद्रगुप्त माहंतुम विषकन्यकाम निर्माय जीव सिद्धि क्षपणक द्वारा चंद्रगुप्तांतिके प्रेषयामास। ततश्च चाणक्य जीव सिद्धि नामना क्षपणकात्तां विषकन्यकां गृहीत्वा विलासी पर्वतेश्वर एवानया विषकन्यया प्रथमं तोषणीयम् इति चंद्रगुप्तम् आभाष तस्मै तामदात्। तत्संभोगेन पर्वतेश्वरं गतजीवनं विलोक्य प्रतिज्ञार्थार्ध राज्य प्रदान भयात् चाणक्यो घातितवान् ते पितरं कदाचित् त्वामपि किं करिष्यति का जानातीति रहसि भायित्वा भागुरायणः पर्वतेश्वरात्मजं मलयकेतुम् अपवाहितवान्। ततश्च विविधोपायश्चंद्रगुप्ताय राज्यं दत्त्वा तद्राज्यस्थिरीकरणार्थम् आमात्यराक्षसं समुपसंग्रहीतुं तथा घटनां व्यधान चाणक्य इति। अन्यविधा चाख्यायिका। केचिन नंदा नाम भूपतयो बभूव तेषु ज्येष्ठ उग्रधन्वा नंदो महिषशास तस्य वक्रनासादयो मंत्रिणश्चासन तेषु मंत्रिषु दंडनीतिज्ञो राक्षसो नाम राज्यकार्यं करोति स्म। अस्य भूपतेर ज्येष्ठ महिषी सुनंदा नाम बभूव मुरा नामने वृसली तु सौंदर्यादिगुणे प्रियाभवत् कदाचिन नृपो गृहमागतमेकं तपस्विनं भक्त्या सभार्यो भृशमुपचचार नृपपूजितस्य तपस्विनश्चरणोदके पत्न्यो शिशेच ज्येष्ठ महिषी शिरसि नवचरणोदक विन्दवः पतिता मुरा शिरसि त्वेक एव बिन्दुरपतत् सा च मुरा भक्त्या तं चरणोदक बिन्दुमग्रहीत् मुराया भक्तिमालोक्य तापसो नितरां प्रसन्नो बभूव तापसानुकंपया मुराया गुणसंपन्न पुत्रो जातः सुनंदायास्तु बहुगर्भयुक्ता मांसपेशी जाता। अस्यांच स्थितान नवसंख्यकान गर्भान तैलद्रोणीषु विनिक्षिप्य राक्षसो यत्नेन पुपोष ततस्ते क्रमेण परिवर्धमाना नववीरा बभूव पिता तेषां नन्द इत्येव संज्ञां कृतवान्। स्थविरो नृपस्तेषु नवसु राज्यं न्यासीकृत्य मौर्यञ्च सैन्याधिपत्यं विधाय कायं जहौ मौर्यस्य तु चंद्रगुप्त मुखा शतं पुत्रा आसन् ते च नन्दा दुरात्मानस्तं सपुत्रमन्तर भूमिर्गृहमवासयन् कदाचित् सिंहल देशाधिपति मधुश्चिष्ट निर्मितं पंजरबद्धं सिंहमेकं जीवन्तमेव विधाय अस्ति कोऽपि युष्माकमेतादृशौ बुद्धिमान् यो दुष्टजीवमिमं पंजरस्थमेव द्रावयेदिति सन्देश्य नन्देभ्य प्रेषयामास। तेषु तूष्णीं भूतेषु स्थितेषु बुद्धिमान् चन्द्रगुप्त एवातितप्त लोहशूलेन तं सिंहं पंजरस्थम् एव व्यालपयत्। तदनन्तरं सर्वे नन्दाश्चन्द्रगुप्तस्य मति वैषद्यमालोक्य विस्मयमापन्ना वध्यमपि तमन्तर्भूर्गृहादिनिस्सारयामासु तथाविधं तां न सहन्तं दैवपितृके कर्मणि च न्ययोजयन्त स च चन्द्रगुप्त केनापि प्रकारेण समयं प्रतीक्षमाण तेषामपकाराय कमपि क्रोधिनं विष्णुगुप्तनामानं नीतिज्ञं ब्राह्मणम् उपागतम् तस्या सावती प्रियो जातः स च ब्राह्मण नन्दानां पितुः श्राद्धकृते निमन्त्रितो विरूपत्वात्तैरवमानितो अग्रयासनायाञ्च वितश्च कोपत्करेण शिखामुन्मुच्य नन्दोन्मूलनाकाङ्क्षया नन्दवंशविनाशमन्तरा न मम शिखाबन्धनं भविष्यतीति दुस्तरप्रतिश्रुतिमारुह्य शरणागतं चन्द्रगुप्तं राज्यप्रदानोक्त्या समाश्वास्य पुराण्यर्गतः चन्द्रगुप्तस्य निजदण्डमित्या तत्क्षणमेव पुराण्यर्गत्य कौटिल्यचाणक्यमुपागतं स च चाणक्यश्चन्द्रगुप्तमादाय निजसुहृदं विष्णुशर्माणं क्षपणकवेशं विधाय तेनैवोपायेन राक्षसादिमन्त्रिणो वञ्चयन् नन्दराज्यार्धर्पणेन बलवन्तं म्लेच्छराजपरिवृत्तं पर्वतेश्वरं विनाश्य कुसुमपुरं परुरोध राक्षसमिति परिगृहीता सर्वे नन्दा सङ्ग्रामायैव सुसज्जिता क्रमेण सङ्ग्रामे विनाशिता। राक्षसस्तु स्वामी विनाशात् क्रुद्ध कपटेन चन्द्रगुप्त माहन्तु मनेकोपायान् व्याधात् सर्वार्थसिद्धिर्नाम नन्दानां पितृव्ययपुत्र पौरजनाति दुःखमहसहिष्णु रात्रौ सुरङ्गया वनमगात्। अथामात्य राक्षसो निजपुत्रादिकं सुहृदि चन्दनदासे संस्थाप्य सुरङ्गया निर्गत्य चन्द्रगुप्त माहन्तुं क्षपणकद्वारेण विषकन्यां प्रेषयामास। चाणक्यस्तदेव विष्कन्यया पर्वतेश्वरं विनाश्य तत्पुत्रं मलयकेतुं स्वानुचरं भागुरायणादिद्वारा भावयित्वा पुरान् निसारयामास। राक्षसस्तु पुनश्चन्द्रगुप्त महन्तं कूटमन्त्रादियोजनार्थम् एकान्ते दारुवर्मादिसुहृदो नियोजितवान्। चन्द्रगुप्तस्तु सर्वमरीकृत्यमवधार्य तैरपक्षीयानेव पर्वतेश्वरवधोत्पन्न यशशालयितुं पर्वतेश्वर भ्रातरं विरोचकं च व्यनाशयत्। चारद्वारा तपोवनस्थं सर्वार्थसिद्धिं च विनाश्य चन्द्रगुप्तम् अभ्यषेचयत्। ततो राक्षसो मलयकेतुं प्रोत्साहयन् ब्रवीत्, राजपुत्र सकौटिल्यं चन्द्रगुप्तं निहत्य सर्वराज्यं तुभ्यं दास्यामेव। चाणक्यस्तव पितरं मौर्यराज्यार्धहर्तारं विष्कन्यया धातितवान्। तस्मान् निशंस एष हन्तव्य एव, त्वयि सर्वं राज्यं समासज्या निर्णय भविष्यामि। इत्थं मलयकेतुं प्रोत्साह्य मन्त्री राक्षसो रिपुर्विनाशार्थ मने कोपायान करोत्। परं दैवप्रातिकूल्येन निखिलप्रयासो वैफल्यमुपागतः, अन्ततः स्वयमेव रिपुवर्षवर्ती बभूव इति मुद्रा राक्षसनाटकस्योद्घातः समाप्तः।